अष्टम अध्याय अक्षर ब्रह्म योग। किं तद् ब्रह्म किमाध्वा त्वं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रक्तमधिदैवं किमुच्यते अधियज्ञ कथं कोत्र देहेस्मिन् मधुसूदन प्रयणकाले च कथं ज्ञेयोऽसि नियतात्मभिः अक्षरं ब्रह्म परमं स्वभावबोध्यात्ममुच्यते भूतभावोद्भवकरो विसर्ग कर्मसंगित अधिभूतं शरो भाव पुरुषश्चाधिदैवतम् अधियोग्यहमेवात्र देहे दह भृताम्बर अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् यः प्रयाति स मद्भावं याति नस्तत्र संशय यं यं वापि स्मरन् भावं तज्ज्वतन्ति कलेवरं तं तमेवैति कौन्तेय सदा तद्भाव भावित तस्मात् सर्वेषु कालेषु ममनुस्मर युद्ध च मय्यर्पित मनोबुद्धिर्ममेवैशस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यागामिना परमं पुरुषं दिव्यं याति पार्थनुचिन्तयन् कविं पुरणमनुशासिता रमणोरणीयं समनुस्मरेद्य सर्वस्य धातरमचिन्त्यरूपमादित्यवर्णं तमस परस्तात् प्रयणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवुर्मध्ये प्रणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यं यदक्षरं विदुविदो वदन्ति विशन्ति यत् यतयो वितराग यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोरिधि निरुद्ध्य च मूर्ध्नाधायात्मन प्राणमस्थितो योगधारणम् ओमित्येकाक्षरं ब्रह्मव्यारन् मामनुस्मरन् यः प्रयाति त्याजन् देहं स याति परमं गतिम् अनन्नचेता सततं यो मां स्मरति नित्यश तस्याहं सुलभ पार्थ नित्ययूयक्त स ओगिन मामुपेत्य पुनर्जन्म दुःखलायं शाश्वतं नाप्नुवन्ति महात्मान संसिद्धिं परमङ्गता आब्रह्म भुवन्न लोका पुनरवर्ति नोर्जुन मामुपेत्य तु कौन्तय पुनर्जन्म न विद्यते सहस्रयुग पर्यन्तमहर्यद् ब्रह्मणो विदु रात्रिं युगसहस्रान्तां ते होरात्रविदो जन अव्यक्ताद् व्याक्तय सर्वा प्रभवन्त्यारागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्याक्तसंज्ञके भूतग्रम स एवयं भूत्वा भूत्मा प्रलीयते रात्र्यागमे वश पार्थ प्रभवत्यहरागमे परस्तस्मात्तु भावन्योः व्याक्तो व्याक्त्यात् सनातन यः स सर्वेषु भूतेषु नश्यत्सु न विनश्वति अव्यक्ताक्षर इत्युक्त्यस्तु माहु परमाङ्गतिम् यं प्राप्य न निर्वतन्ते तद्वाम परमं मम पुरुष स पर पार्थ भक्त्या लभ्यस्तनन्यया ये शान्तस्थानि भूतानि येन सर्वमिदं ततम् यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन प्रयता यान्ति त्वं कालं वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल षण्मास उत्तरायणम् तत्र प्रयता गच्छन्ति ब्रह्म ब्रह्म विदो जन भूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनम् तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते शुक्ल कृष्णे गतीयते जगत शाश्वते मते एकया यातनावृत्तिमन्यया वर्तते पुनः नैते श्रुति पार्थ जानन् योगी मुच्यते कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् आत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायं योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोग नाम अष्टमध्यायः।